इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना ऑपरेशन सिन्दूर इत्यस्य प्रथम वार्षिकोत्सवम् आचरितम्। भयोत्पादनस्य पराजये तस्य सक्षम विधिव्यवस्थायाः विनाशे च भारतस्य प्रतिबद्धतां पुनः दृढीकृतम्। बिहारस्य मुख्यमन्त्री सम्राट चौधरी स्वमन्त्रिमण्डलस्य विस्तारं कृतवान्। नीतीश कुमारस्य पुत्रेण सह द्वात्रिंशत् मन्त्रिणः च नूतन मन्त्रिमण्डले शपथवचनं स्वीकृतवन्तः। तमिलनाडु केरल राज्ययोः सर्वकार निर्माणार्थं तीव्र संवादाः प्रचलन्ति। सर्वकारेण चत्वारिंशत् वर्षतः अधिक वयस्कानां कर्मचारिणां कृते राष्ट्रव्यापी वार्षिक स्वास्थ्य परीक्षणोपक्रमं समारब्धम्। अपि च आईपीएल क्रिकेट क्रीडायां लखनऊ सुपर जायंट्स दलम् अद्य सायंकाले लखनऊ नगरे रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् देशः आतंकवादं पराजयितुं तस्य समर्थकं विधिव्यवस्थां च विघटयितुं दृढः अस्ति। सिन्दूराभियानस्य एकवर्षस्य पूर्त्यवसरे सामाजिकान्तर्जालीये पटले श्रीमोदी अवदत् यत् भारतीय सशस्त्रसेनया अभियानावधौ अपूर्वं साहसं स्पष्टतां सुदृढं संकल्पं च प्रदर्शितम्। सः अवदत् यत् एतत् पहलगाम इत्यत्र निर्दोष भारतीयेषु आक्रमणस्य साहसं कर्तृषु सैनिकाः समुचितं प्रतिकारं कृतवन्तः। श्रीमोदी अग्रे अवदत् यत् सशस्त्रसेनायाः शौर्यस्य सम्पूर्णः देशः अभिवादनं करोति। प्रधानमन्त्री अवदत् यत् आतंकवादस्य विरुद्धं भारतस्य दृढप्रतिक्रियायाः राष्ट्रियसुरक्षायाः रक्षणाय तस्य अविचलप्रतिबद्धतायाः च प्रतिबिम्बः एव ऑपरेशन सिन्दूर इत्यस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः चापि स्वमनोभावं सामाजिकान्तर्जालीये पटले प्रकटितवन्तौ। बिहारराज्ये अद्य मुख्यमन्त्री सम्राट चौधरी इत्यस्य नेतृत्वे मन्त्रिमण्डलस्य विस्तारः अभवत्। पटनानगरस्य गान्धिमैदान इत्यत्र आयोजिते भव्य शपथग्रहणसमारोहे राज्यपालः सेवानिवृत्तः लेफ्टिनेंट जनरल सैयद अता हुसैनः द्वात्रिंशत् नवनियुक्तेभ्यः मन्त्रिभ्यः पदस्य गोपनीयतायाश्च शपथं प्रदत्तवान्। मन्त्रिमण्डले अधुना भारतीय जनता पार्टीति दलस्य 15, जनतादल यूनाइटेड दलस्य 13, रामविलास लोक जनशक्ति दलस्य 2, हिन्दुस्तानी आवाम मोर्चा तथा राष्ट्रिय लोकमोर्चा दलयोः प्रत्येकतः एकैक मन्त्रिणौ स्तः। मन्त्रिणः प्रथमं 5 समूहेषु ततः 6 समूहेषु च शपथं स्वीकृतवन्तः। शपथग्रहणसमारोहे सम्मिलितेषु प्रमुखेषु मन्त्रिषु जनतादल यूनाइटेड दलस्य अध्यक्षस्य नीतीशकुमारस्य पुत्रः निशान्तकुमारः अपि आसीत्। उल्लेखनीयमस्ति यत् नीतीशकुमारः गतमासे राज्यसभां प्रति गन्तुं मुख्यमन्त्रिपदात् स्वत्यागपत्रं समर्पितवान्। तमिलनाडुराज्ये टीवीके प्रमुखः जोसेफ विजयः अद्य लोकभवने द्वितीयवारं राज्यपालेन विश्वनाथ आर्लेकरवर्येण सह मेलनं कृतवान्। राज्यपालेन एव तस्मै आहूतम् इत्युच्यते। तेन सह मेलनानन्तरं राज्यपालः अपि केरलराज्यं प्रति प्रस्थास्यति इति सम्भावना विद्यते। ह्यः अपि विजयः राज्यपालेन सह मिलित्वा दलस्य विधायकानां सूचीं कांग्रेसदलस्य समर्थनपत्रं च उपस्थापितवान् आसीत्। अस्मिन् समये बहुमतं प्रदर्शयितुं तस्य समर्थनस्य आवश्यकता आसीत्। वीसीके दलस्य नेता थिरुमा वलवनः अवदत् यत् तस्य दलम् अद्य विधायकदलस्य सभायाः अनन्तरं विजयस्य समर्थनाय निर्णयं करिष्यति। दलस्य 2 विधायकौ स्तः। वामदलानि अपि राज्यपालं प्रार्थयन्ति यत् बृहत्तमं दलं टीवीके इत्यमुं सर्वकारस्य निर्माणस्य अवसरः प्रदीयन्तु। प्रियाः श्रोतारः संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। श्रम वृत्त्यावसर मंत्री डॉक्टर मनसुख मांडविया अद्य नूतन श्रम संहितायाः अन्तर्गतं 40 वर्षतः अधिक वयस्कानां कर्मचारिणां कृते राष्ट्रव्यापी वार्षिक स्वास्थ्य परीक्षणोपक्रमं आरब्धवान्। अद्य नवदिल्ल्याः कर्मचारी राज्य आश्वस्ति निगमस्य ईएसआईसी इत्यस्य चिकित्सा महाविद्यालये चिकित्सालये च उपक्रमस्य आरम्भं कुर्वन् मंत्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे गत 12 वर्षेषु देशस्य कार्यबलस्य युवशक्तेः च सम्मानः महत्वपूर्णरूपेण वर्धितः अस्ति। सः अवदत् यत् सर्वकारः वृत्त्यवसराणां सर्जनाय निरन्तरं प्रयतमानः अस्ति। परिणामतः निरुद्योगदरः प्रायः 3.2% यावत् न्यूनीकृतः अस्ति।
आज से एक दशक पहले देश में केवल 30 करोड़ लोगों को सोशल सिक्योरिटी का कवरेज मिलता था, लेकिन 12 साल के बाद इंटरनेशनल लेबर ऑर्गेनाइजेशन के डायरेक्टर जनरल ने अनाउंसमेंट करा कि भारत में सोशल सिक्योरिटी कवरेज बढ़ के मोदी गवर्नमेंट के प्रयासों से आज देश में 94 करोड़ लोगों को सोशल सिक्योरिटी की कवरेज मिल रहा है।
पश्चिम बंगाल राज्ये नूतन सर्वकारस्य निर्माणार्थं राजनैतिक संवादाः तीव्राः जाताः। पश्चिम बंगाल राज्ये भाजपेति दलस्य विधायकस्य शुभेन्दु अधिकारिणः निकट सहायकस्य हत्यायाः विषये राज्यारक्षकैः 3 जनाः निगडिताः सन्ति। आरक्षकैः 7-सदस्यीयाः विशेष अन्वेषण दलं एसआईटी इति निर्मितम्। एतत् सीआईडी दलस्य आईजी इत्यस्य निरीक्षणे कार्यं करिष्यति। दलस्य सदस्येषु सीआईडी एसटीएफ राज्यारक्षिदलस्य गुप्तचर शाखायाः च अधिकारिणः सम्मिलिताः भविष्यन्ति। भारतेन अद्य उक्तं यत् सीमपारस्य भयोत्पादनस्य प्रायोजकत्वाय पाकिस्तानाय ऑपरेशन सिन्दूर इत्याभियानस्य समये समुचितं उत्तरं प्रदत्तम्। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत् सीमापारस्य भयोत्पादनं पाकिस्तानदेशेन राज्यनीतेः साधनरूपेण बहुकालादेव प्रयुक्तमस्ति। सः अवदत् यत् भयोत्पादनस्य विरुद्धं स्वसंरक्षणार्थं भारतस्य पार्श्वे सर्वाधिकारः अस्ति। भयोत्पादनस्य विरुद्धं वैश्विकयुद्धं सुदृढं कर्तुं निरन्तरं कार्यं करिष्यति। अवैध बांग्लादेशी जनानां प्रत्यागमनस्य विषये प्रश्नस्य प्रत्युत्तरे श्रीजायसवालः अवदत् यत् बांग्लादेशे 60-80-2000-तोप्यधिकाः राष्ट्रियतासत्यापनाय विचाराधीनाः सन्ति। भारत ऋतुविभागेन आगामि दिनद्वयोः केरलं माहे दक्षिणान्तरिक कर्णाटक तमिलनाडु पुदुचेरी करैकल इत्येतेषां राज्याणां पृथक् पृथक् स्थानेषु प्रचण्डवृष्टेः पूर्वानुमानं प्रकटितम्। श्वः यावत् उत्तरप्रदेशे आन्ध्रप्रदेशे बिहारे छत्तीसगढ़े गोवाराज्ये च मेघस्फोटेन सह वृष्टेः तीव्रवायोः च सम्भावना विद्यते। श्वः मध्यप्रदेशे मध्यमहाराष्ट्रे मराठवाड़ायाम् अण्डमान निकोबार द्वीपयोः देशस्य पूर्वोत्तर राज्येषु च एतादृशेः स्थितेः सम्भावना विद्यते। आईपीएल क्रिकेट क्रीडायाम् अद्य लखनऊ सुपर जायंट्स दलं रॉयल चैलेंजर्स बेंगलुरु दलं लखनऊस्थे भारत रत्न श्री अटल बिहारी वाजपेयी एकाना क्रिकेट क्रीडांगणे सम्मुखीकरिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। अन्ते मुख्य वार्ताः पुनः एकवारम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना ऑपरेशन सिन्दूर इत्यस्य प्राथमिक वार्षिकोत्सवम् आचरितम्। बिहारस्य मुख्यमन्त्री सम्राट चौधरी स्वमन्त्रिमण्डलस्य विस्तारं कृतवान्। तमिलनाडु केरल राज्ययोः सर्वकार निर्माणार्थं तीव्रसंवादाः प्रचलन्ति। सर्वकारेण 40 वर्षतः अधिक वयस्कानां कर्मचारिणां कृते राष्ट्रव्यापी वार्षिक स्वास्थ्य परीक्षणोपक्रमं समारब्धम् इति वार्ताः।